आकाशवाणी संप्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधीतिवारि इदानीं वार्ताः आयुष्मान भारत प्रधानमंत्री जनारोग्य योजनायाः अंतर्गतं सर्वेभ्यः पात्र वरिष्ठ नागरिकेभ्यः एकं पृथक् नवीनं प्रपत्रं निर्मास्यते। आधिकारिक सूत्रानुसारी आधार प्रपत्रस्य अनुसारं सप्तति वर्षाणां उतवा इतोपि अधिकं आयुवर्गाणां केनापि जनेन अस्य योजनायै आवेदनं कर्तुं शक्यते। केन्द्रीय मन्त्री जितेन्द्र सिंहः अद्य एकस्य विशिष्टस्य स्वच्छताभियानस्य चतुर्थ संस्करणस्य प्रगतिं समीक्षितुं एकस्य समर्पितस्य आभासीयान्तर्जाल पटलस्य उद्घाटनं विधास्यति। अस्य विशिष्टाभियानस्योद्देशं केन्द्रप्रशासनस्य सर्वेषु कार्यालयेषु स्वच्छतायाः संस्थागतकरणमिति अस्ति। प्रशासनेन स्वच्छतायाः संस्थागतकरणाय प्रत्येकस्मिन् वर्षे अक्टूबर मासस्य द्वितीयदिनांकतः एकत्रिंशत् दिनांकं यावत् च विशिष्टाभियानस्य निर्णयो निर्णीतः। भारतं चतुर्विंशत्यधिकद्विसहस्रतमवर्षाय भारत यूरोपीय हाइड्रोजन इत्यस्मै सप्ताहाय सहभागित्वं करिष्यति। ह्यः नवदिल्ल्यां ग्रीन हाइड्रोजन इत्यस्मिन् विषये आधारितस्य अन्ताराष्ट्रिय सम्मेलनस्य द्वितीये दिवसे एतदर्थम् आधिकारिक घोषणा जाता। अवधेयं वर्तते यत् कार्यक्रमोऽयम् अस्मिन् वर्षे नवम्बर मासे समायोज्यते। विद्युत् मन्त्रालयेन निगदितं यत् भारतं निर्यातं समेधितुं यूरोपीय संघस्य हरित नियमेभ्यः ध्यानं प्रदास्यति। नवदिल्ल्याः भारत मण्डपम् इत्यत्र नागरिकोड्डयन विषयिके द्वितीये एशिया प्रशान्त मन्त्रिस्तरीये सम्मेलने प्रधानमन्त्रिणा नरेन्द्रमोदिना भागं गृहीतम्। इतः पूर्वं नागरिक विमानयान मन्त्री राममोहन नायडूवर्यः परह्यः नवदिल्ल्यां सम्मेलनस्य उद्घाटनम् अकरोत्। श्रीनायडुः नागरिक विमानयान विषये एशिया प्रशान्त मन्त्रिस्तरीय सम्मेलनस्य अध्यक्षत्वेन निर्वाचितः अभवत्। पञ्चत्रिंशदधिकद्विसहस्रतमवर्षपर्यन्तं सार्धत्रिशतकोटि वार्षिक यात्रिकान् समायोजयितुं एशिया प्रशान्त विमानयान आधारिक संरचनायां व्यूहात्मक निवेशस्य आह्वानम् अकरोत्। रक्षामन्त्री राजनाथसिंहः ह्यः अवदत् यत् देशस्य रक्षाक्षेत्रम् आत्मनिर्भर भारतस्य नूतन संकल्पेन सह द्रुतगत्या अग्रे गमिष्यति इति। ह्यः राजस्थानस्य जोधपुरे प्रचलितस्य बृहत्तमस्य बहुराष्ट्रियस्य वायु अभ्यासस्य तरंगशक्ते इत्यस्य द्वितीय चरणे आयोजिते वायु प्रदर्शनान् साक्ष्यं स्वीकृत्य मन्त्री अवदत् यत् तरंगशक्तेः उद्देश्यं देशस्य सैन्यक्षमतायाः प्रदर्शनं सहभागीदेशानां मध्ये अन्ताराष्ट्रिय सहयोगस्य सुदृढीकरणं च अस्ति। आयुष मन्त्रालयेन तृतीयतमस्य विशिष्टाभियानस्य अन्तर्गतं त्रयोदशशततोऽधिकाः जनसमस्याः निराकृताः। अस्य अभियानस्य उद्देश्यं कार्यस्थले स्वच्छतायाः परिपालनम् अभिवृद्धिः च अस्ति इति मन्त्रालयः प्रोक्तवान्। मन्त्रालयः इदानीं विशिष्टाभियानस्य चतुर्थचरणस्य कृते सज्जो वर्तते। आगामिनः अभियानस्य भागरूपेण आयुषमन्त्रालयः स्वच्छम् अवकरमुक्तं च भारतं कर्तुं सर्वेभ्यः प्रतिज्ञां ज्ञापयिष्यति। विज्ञान प्रौद्योगिकी राज्यमन्त्री डॉ जितेन्द्र सिंहः ह्यः अवदत् यत् भारतदेशः जैव प्रौद्योगिक्याधारितस्य जैव क्रान्तेः रोमाञ्चकर समये प्रवेशं कुर्वन्नस्ति। नवदिल्ल्याः भारतमण्डपम् इत्यत्र ग्लोबल बायो इण्डिया चतुर्विंशत्यधिकद्विसहस्रतमम् इति सम्बोधयन् डॉ सिंहः अवदत् यत् जैवक्रान्तिः भारतस्य कृते तथैव प्रभावं जनयितुं शक्नोति यथा एकदा पाश्चात्यदेशानां कृते आईटी क्रान्तिः आसीत् इति। वार्ताः